एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रतिनिधि सभा निर्वाचनस्य अन्तर्गतं समानुपातिक प्रणाल्या मतानां विहितायाः गणनायाः अनुसारेण षड् दलानि राष्ट्रिय दलानां रूपेण निश्चितानि वर्तन्ते। अस्यैव फाल्गुन मासस्य एकविंशे दिवसे सम्पन्ने निर्वाचने समानुपातिक प्रणाल्या पक्षे संयुक्त निर्वाचन चिन्ह सहित सप्तपञ्चाशत् दलै भागो गृहीता आसीत्। तत्र षड्भि दलै राष्ट्रिय दलानां रूपेण मान्यताया प्राप्ते आवश्यकानि प्रतिशतं त्रीणि मतानि प्राप्तानि सन्ति। समानुपातिक निर्वाचन प्रणाल्या अन्तर्गतं एककोट्या अष्टानां लक्ष्याणां पञ्चत्रिंशत सहस्राणां सप्तविंशतेश्च मतानां गणना सम्भूता अस्ति। तत्र समानुपातिक प्रणाल्यां रासोपा दलेन एकपञ्चाशत् लक्ष्याणि त्र्यशीति सहस्राणि चतुःशतं त्रिनवतिश्च मतानि प्राप्तानि सन्ति। रासोपा दलं समानुपातिक प्रणाल्यामपि अग्रस्थाने वर्तते। नेपाली कांग्रेस दलेन सप्तदश लक्ष्याणि एकोनषष्टि सहस्राणि द्वासप्तत्यधिकैकशतं च मतानि प्राप्तानि वर्तन्ते। एवमेव नेकपा एमाले दलेन चतुर्दश लक्ष्याणि पञ्चपञ्चाशत् सहस्राणि पञ्चाशीत्यधिकाष्टशतं च मतानि प्राप्तानि सन्ति। तथैव नेपाली कम्युनिष्ट दलेन अष्ट लक्ष्याणि एकादश सहस्राणि सप्तसप्तत्यधिक पञ्चशतं च मतानि प्राप्तानि वर्तन्ते। श्रम संस्कृति दलेन लक्ष्यत्रयं पञ्चाशीति सहस्राणि षट्पञ्चाशदधिकाष्टशतं च मतानि, राप्रपा दलेन च लक्ष्यत्रयं त्रिंशत् सहस्राणि चतुरशीत्यधिक षट्शतं च मतानि अधिगतानि वर्तन्ते। समानुपातिक निर्वाचन प्रणाल्यां वैधमतानां न्यूनतोपि प्रतिशतं त्रीणि मतानि प्राप्तवद्भ्यो दलेभ्य एव राष्ट्रिय दलस्य रूपेण मान्यता प्रदानस्य तेभ्य एव अवशिष्ट स्थानानाम् आवंटनस्य व्यवस्था स्थिति निर्वाचन आयोगेन ज्ञापितं वर्तते। सम्पूर्णमपि देशम् एकं निर्वाचन क्षेत्रं मत्वा दलाय मतं दीयते। तत्र प्रत्येकं दलेन लब्धानां मतानां समग्र संख्यायाः अनुपातानुसारेण तादृशस्य दलस्य प्रातिनिध्यं कुर्वाणः प्रत्याशिनः प्रतिनिधिसभायाः सदस्यपदे निर्वाचितौ निर्वाचनो भवतीति च प्रतिनिधिसभायाः सदस्यपदे निर्वाचनो भवन्तीति च विधेर्व्यवस्थास्तीति निर्वाचन आयोगस्य सहायक प्रवक्ता कुलबहादुरजीसी असूचयत्। संयुक्त राष्ट्रसंघस्य महासभया नेपालस्य प्रस्तावेन अप्रैल मासस्य पञ्चदश दिवसः अन्तर्राष्ट्रिय आरोग्य दिवसत्वेन उद्घुष्टोऽस्ति। संयुक्त राष्ट्रसंघस्य महासभया नेपालस्य प्रस्तावेन चीन भारत प्रभृतीनां चत्वारिंशत् देशानां सह प्रस्तावेन च प्रतिवर्षम् अप्रैल मासस्य पञ्चदश दिवसे आविश्वम् अन्तर्राष्ट्रिय आरोग्य दिवसः आयोज्यते। परराष्ट्र मन्त्री बालानन्द शर्मा ह्य परराष्ट्र मन्त्रालये पत्रकार सम्मेलनमा आयोज्य प्राय द्वन्द्वस्य राजनीतौ अर्थतन्त्रे केन्द्रितेषु विमर्शेषु च आरोग्य दिवसेन अन्तर्राष्ट्रिय विषयरूपेण स्थानस्य प्राप्तिः प्रेरणादायक क्रमोऽस्तीति प्रावोचत्। परराष्ट्र मन्त्रालयस्य संयुक्त राष्ट्रसंघ महाशाखायाः प्रमुखः सहसचिवः कृष्ण प्रसाद ढकालः आरोग्य दिवसेन स्वास्थ्यस्य अर्थः न केवलं रोगाभाव एव प्रत्युतः शारीरिकं सामाजिकं मानसं सांस्कृतिकं भावनात्मकं पर्यावरणीयं च कल्याणं वर्तते इति चर्चयन् आविश्वम् एतस्य प्रचारस्य प्रवर्धनस्य च लक्ष्यमस्तीति उक्तवान्। परराष्ट्र मन्त्री बालानन्द शर्मा मध्य एशिया क्षेत्रे विद्यमानाः नेपाली जनाः द्वन्द्वे प्रत्यक्ष रूपेण लक्षिताः न सन्तीति चर्चयन् सुरक्षिताः वर्तन्ते इत्युक्तवान् अस्ति। परराष्ट्र मन्त्रालये ह्य आयोजिते पत्रकार सम्मेलने मन्त्री शर्मा मध्य एशियाई क्षेत्रे विद्यमानानां नेपालीनाम् उद्धाराय सुरक्षायै च प्रारब्धे तथ्यांक संकलने साम्प्रतं यावत् त्र्यशीति सहस्राधिकाः जनाः सम्बद्धेषु नियोगेषु आवेदनपत्रं प्रस्तुतवन्त इति संसूचितवान्। मन्त्री शर्मा नेपाली जनानां सुरक्षायाः कृते सर्वकारेण सर्वविधं पूर्वकार्यं विधीयमानमस्ति इति असूचयत्। पत्रकार सम्मेलने परराष्ट्र मन्त्रालयस्य सचिवः अमृत बहादुर राई मध्य एशियाई क्षेत्रे विद्यमानान् नेपाल जनान् सुरक्षायाः कोणेन तत्कालम् उद्धृत्य तेषां स्वदेशानयनस्य व्यवस्था नास्ति इति प्रावोचत्। प्रवक्ता लोकबहादुर पौडेल क्षेत्री मध्य ऐसैका क्षेत्रीय क्रमिक रूपेण अवस्था सहजा जायमाना स्थिति आकलनम विधीयमानम स्थिति प्रावोचत मध्य ऐसैका क्षेत्रीय औपचारिक रूपेण आसन्न विंशतिर लक्ष्याणी अनौपचारिक रूपेण च पञ्चविंशतितः त्रिंशत् लक्ष्याणि नेपाली जनाः वर्तन्ते इति परराष्ट्र मन्त्रालयेन ज्ञापितमस्ति। गृहमन्त्री ओमप्रकाश अर्यालः कथयति निर्वाचनस्य पश्चात् संविधानेन समुचित मार्गः अवलम्बितो वर्तते। सामाजिक सांजालिक माध्यमेन मन्त्रालये पूर्वेद्युः उपविष्टे निर्वाचनस्य समीक्षोपवेशे गृहमन्त्री अर्यालः निर्वाचनेन राजनीतिक सुशासनस्य आधारः निर्मितोऽस्तीति प्रत्यपादयत्। समेषां सामूहिक प्रयासेनैव ऐतिहासिकोपलब्धिः अधिगता अस्तीति चर्चयन् गृहमन्त्री अर्यालः महत्वपूर्ण कार्येऽस्मिन् केन्द्रात् कार्यस्थलं यावत् क्रियारतानां सर्वविधस्तराणां कर्मचारिणां विशेष भूमिका आसीदिति प्रत्यपादयत्। तदवसरे गृहमन्त्री अर्यालः स्वच्छे निष्पक्षे भयरहिते च वातावरणे प्रतिनिधिसभायाः निर्वाचनं सम्पन्नमित्यालक्ष्य केन्द्रीय सुरक्षा समित्याः प्रदेश नेतृत्व केन्द्राणां जनपद सुरक्षा समितिनां च पदाधिकारिभ्यो धन्यवादं विज्ञापयत्। नेपाली कांग्रेस दलेन राष्ट्रिय सभायाम् एकताबद्धा सन्तोप दायित्वपूर्वकं प्रस्तुतः भवितुं निर्णीतं वर्तते। नेपाली कांग्रेस दलस्य पक्षतः राष्ट्रिय सभायां विद्यमानानां सदस्यानां पूर्वेद्युः उपविष्टेन उपवेशेन आगामि दिनेष् जनभावनायाः अनुरूपं दलस्य पक्षतः राष्ट्रिय सभायाम् एकताबद्धा सन्तोप दायित्वपूर्वकं प्रस्तुतः भवितुं निर्णीतम् इति प्रमुख सचेतक पदीयः कृष्णबहादुर रोकाया असूचयत्। उपवेशे देशस्य सामयिक राजनीतिक परिस्थितिर्विषयेष् विमर्शनेन सहैव गत माघ मासस्य एकादशे दिवसे कांग्रेस दलस्य पक्षतः निर्वाचितानां सदस्यानां स्वागतं विहितम् आसीत्। सर्वोच्च न्यायालयेन रासुपा दलस्य सभापतेः रवि लामिछाने विदस्य विरुद्धे पञ्जीकारितस्य आदेशाभियाचन न्यायिक निवेदनस्य श्रवणं पूर्ण न्यायपीठे कर्तुमादिष्टं वर्तते। सभापतेः लामिछाने विदस्य सहकारी सम्बद्धस्य न्यायिक प्रकरणस्य सम्पत् शुद्धिकरणस्य अपराधं संशोध्य प्रत्यावर्तनेन सह सम्बद्धस्य महान्यायाधिवक्तुः कार्यालयस्य निर्णयस्य विरुद्धे पञ्जीकारितस्य आदेशाभियाचन निवेदन स्य च श्रवणं पूर्ण न्यायपीठे विधातुं सर्वोच्च न्यायालयेन आदिष्टं वर्तते। न्यायाधीशद्वयस्य सपना प्रधानमल्लस्य श्रीकान्त पौडेलस्य च संयुक्त न्यायपीठेन एतत् सम्बन्धे आगामिनः चैत्रमासस्य प्रथमे दिवसे पूर्ण न्यायपीठे श्रवणाय न्यायिक निवेदनं प्रस्तोतुम् आदिष्टमस्तीति सर्वोच्च न्यायालयस्य प्रवक्ता अर्जुन प्रसाद कोइराला असूचयत्।